सप्तदशोऽध्यायः एतस्मिन् वने फलवन्ता वृक्षौ स्तः यदान्यकर्म कुर्वन्त्यन्ये नराश्यरते गुरुनरौ वार्यमर्दुपलान्यतस्म यः समत्वेन सुखदुःखम् अतीति स आत्मवान् केचिद्गुरवः सत्यं विदुः ग्रामस्य समीपेष्वधेनु अपश्याम न कश्चिद् वेत्ति कुत्र तस्य धनानि सन्ति यदा गुरुरेति तदा शिष्यः सर्वदा तमनुयन्ति तत्सुन्दरतमं नगरं कुत्रासीत्।